एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली कथयति देशः विपन्नतातो मुक्तः अभिहितः सन् समृद्धे आकांक्षा पूरयितुं न शक्यते। ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली नेपालम् अल्पविकसितावस्थातः स्तरोन्नतम् विधातुं वृत्त्युपार्जनाय उत्पादनाय उद्यमशीलतायै च बलं प्रदीयमानमस्तीति अवोचत्। देशे अधुनापि प्रतिशतं 20 नागरिकाः विपन्नवर्गस्य सन्तीति चर्चयन् प्रधानमन्त्री ओली बुभुक्षितेभ्यो जनेभ्यो भोजन प्रदानस्य वातावरणे असृष्टे सति समृद्ध नेपाल निर्माणस्य परिकल्पनायाः सार्थकता नास्तीति अवदत्। प्रधानमन्त्री ओली आत्मना सत्यस्य राजनीतिः विधीयमानास्तीत्यतः शक्तितः अपराजितो भूत्वा कार्याणि विधीयमानानि सन्तीति समस्पष्टयत्। प्रधानमन्त्री ओली समाजस्य सुव्यवस्थितीकरणस्य कार्यम् राजनीतेः राजनीतिक दलानां च स्थिति उदैरयत्। ह्य एव काष्ठमण्डपस्य ठैटीस्थिते धर्मकीर्ति विहारे आयोजिते प्रशिक्षण कार्यक्रमे प्रधानमन्त्री ओली सम्प्रति विश्वेस्मिन् विश्वे सर्वाधिक शान्तेरावश्यकता अस्तीति अब्रवीत्। प्रधानमन्त्री ओली सम्प्रति विश्वेस्मिन् विश्वे शान्तिः करूणा मानवता स्नेह ममता दया परोपकार भावना चेत्यादीनां गुणानाम् अत्यधिका आवश्यकता अस्तीत्यतः बुद्धस्य शिक्षा सम्प्रति सामयिकाः सम्भूताः सन्तीति प्रत्यपादयत्। प्रधानमन्त्री ओली विनयशीलता मानवता आत्मीय भावना च प्रदर्शिता सत्यः विश्वेस्मिन् विश्वे शान्तेः संस्थापनम् पृथिव्याः सुरक्षणम् च भवति स्म इति विचारम् व्यक्तवान्। प्रधानमन्त्री ओली पारस्परिक वैमनस्यस्य अशान्तेश्च प्रवृत्तिः मानवीय प्रवृत्तिः नास्ति अनया विनाशस्यैव सम्भावना भवतीति धारणाम् व्यक्तवान्। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह कथयति समाजे दृष्टं नैराश्यं कार्यसम्पादनेनैव प्रतिकरिष्यते नागरिकाणां दैनन्दिन जीवनं सहजं च करिष्यते। ह्य काष्ठमण्डपस्य प्रथम निर्वाचन क्षेत्रे आयोजिते कार्यक्रमे मन्त्री सिंह सर्वकारेण जनतया अनुभवनत्वेन कार्याणि कृत्वा नैराश्यं निवार्यते इति अवदत्। वर्तमान सर्वकारः विशिष्टावस्थायां निर्मितो स्थिति विषयः सर्वहि ज्ञातः विषयोस्तीति भाषमाणः मन्त्री सिंह राजनीतेः निकासाय आर्थिक विकासाय च सर्वकारेण कार्याणि विधीयमानानि सन्तीति असूचयत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति राजनीतिक स्थायित्वाय आर्थिक विकासाय सुशासनाय च प्रमुख दलद्वय सहकार्यम् सम्भूतमस्ति। नेकपा एमाले दलस्य कास्की शाखया ह्य पोखरायाम् आयोजिते अग्रणी कार्यकर्त्री मेलन कार्यक्रमे संचार मन्त्री गुरूङ जनतायां विकासस्य आशायाः जागरणाय वर्तमान सर्वकार संघटितो स्थिति अब्रवीत्। संचार मन्त्री गुरूङ संसदीय व्यवस्थावत्सु राष्ट्रेषु विपुलदलद्वयं मिलित्वा सर्वकार संघटनस्य परम्परा विरला सत्यपि नेपालाय अभ्यासोऽयं नूतनो नास्तीति अवोचत्। वर्तमान सर्वकाराय असफलो भवितुम् अवकाशो नास्तीति चर्चयन् सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ प्राचीनानां मूलधारस्य राजनीतिक दलानां च औचित्य प्रश्नम् उद्भावयितुम् अवसरो न देयः इति अवदत्। ह्य एव पोखरावर्तिनः पत्र परिवहन निर्देशनालयस्य निरीक्षणस्य पश्चात् मन्त्री गुरूङ पत्र परिवहन विभाग सम्बद्ध प्राचीन नीति नियमान् परिमार्ज्य पत्र परिवहन सेवा समय सापेक्षा विधातव्येति प्रावोचत्। विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया कथयति लोकतान्त्रिकीं व्यवस्थाम् अतिरिक्तां सुदृढां विधातुं सर्वकारः विधे संशोधनाय पूर्व कार्याणि विदधानो वर्तते। ह्य वीरगंज स्थाने आयोजिते कार्यक्रमे मन्त्री चौरसिया विधे संशोधनस्य माध्यमेन निर्वाचन प्रणाल्याः सुधारस्य आवश्यकता अनुभूता अस्ति इति अवोचत्। मन्त्री चौरसिया संघीय प्रादेशिक स्थानीय सर्वकारेषु विद्यमानानां विकृतीनाम् अन्ताय अपि विधेय संशोधनम् आवश्यकमस्ति इति अवदत्। नेकपा माओवादी केन्द्रेण वामपन्थीनां बृहत्तरैकतायै प्रयासः विधास्यते। पेरिस डाँडावर्तिनी दल केन्द्रीय कार्यालये पूर्वे दिहु उपविष्टे दलस्य स्थायी समितेः उपवेशे दलाध्यक्षः पुष्पकमल दाहाल प्रचण्डः वामपन्थीनां बृहत्तरैकतायै प्रयासः विधेयः स्पष्ट कार्यदिशया जनतासु गन्तव्यमिति च प्रस्तावं प्रस्तुत इति उपाध्यक्षः अग्निप्रसाद सापकोटा असूचयत्। एवमेव दलाभ्यन्तरे व्यापक रूपेण शुद्धिकरणाभियानस्य संचालनस्य सन्दर्भेऽपि उपवेशे विमृष्टमासीदिति ज्ञापितं वर्तते। अध्यक्ष प्रचण्डः देशस्य पश्चात्तन राजनीतिकावस्था दलस्य भावि कार्यदिशा विचार निर्माण चेत्यादिषु विषयेषु स्वकीयान् विचारान् प्रस्तौत। उपवेशः अद्य पूर्वाह्नस्य एकादशवादने पुनः वसति। जसपा नाम्नो जनता समाजवादी दल नेपालस्य नवसंघटितस्य केन्द्रीय समितेः उपवेशः अद्यतः ललितपुरे प्रारभ्यते। अस्यैव श्रावणस्य त्रिंशं दिवसं यावत् सञ्चाल्यमाने उपवेशे देशस्य सामयिक दलस्य संघटन सुदृढीकरण विषयेषु च विमृक्ष्यते इति दलाध्यक्षः उपेन्द्र यादवः असूचयत्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा भाषते देशे न किमपि भवतीति जनतायां स्थितस्य नैराश्यस्य अपाकरणम् आवश्यकं वर्तते। महामन्त्री थापा ह्यो नेपाली कांग्रेस दलस्य नेतुः शिक्षासेविनश्च स्वर्गीयस्य श्यामबहादुर कार्कीणः सप्तदश स्मृति दिवसस्य अवसरे बालकोट स्थाने आयोजिते कार्यक्रमे नेपाले समुचितं न कमपि कार्यं सम्भूतम् अस्तीति भाष्यं निर्मातुम् इप्सितमस्तीति उदैरयत्। देशे किमपि सम्भूतं नास्तीति भाष्य निर्माणम् इप्सितं सदपि विकासस्य कतिपय कार्याणि जायमानानि सन्तीति भाषमाणः महामन्त्री थापा देश विकासाय अतिरिक्तानि कार्याणि कर्तव्यानि सन्ति कर्तुं च शक्यन्ते इति विश्वासोत्पादनस्य आवश्यकता अस्तीति विचारं व्यक्तवान्। पश्चात्तन समये डेंगू रोगस्य विसूचिका रोगस्य च संक्रमणं वर्धमानमस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य संक्रामक रोग नियन्त्रण महाशाखायाः अनुसारेण डेंगू रोगस्य संक्रमणं चतुरशीत्यधिक सहस्रत्रय जनेषु प्रसृतमस्ति। चतुर्षु दिवसेषु द्वाविंशत्यधिक शतं जनाः डेंगू रोगिणः वर्धिताः सन्ति। मुस्ताङ डोल्पा जुम्ला हुम्ला जनपदान् विहाय सर्वेषु जनपदेषु डेंगू रोगस्य संक्रमणं प्रसृतमस्ति। महाशाखायाः अनुसारेण सप्तचत्वारिंशत् जनेषु विसूचिकायाः संक्रमणं पुष्टीभूतं वर्तते। ललितपुर काष्ठमण्डप प्युठान कैलाली रूपन्देही जनपदेषु विसूचिकायाः संक्रान्ताः एतावन्तो जनाः प्राप्ताः वर्तन्ते। बाजुरा जनपदस्य हिमाली ग्रामपालिकायाः गोरुखर्कस्थाने भूस्खलने निपत्य चत्वारो जनाः आहताः वर्तन्ते। अनेकशः पशवः भूस्खलने निपतिताश्च सन्ति इति समाचारः।